एष रेडियो नेपालः सम्प्रति समाचारः श्रूयन्ताम् प्रवाचकः उपेन्द्र दाहालः। कोरोना विषाणोः संक्रमणात् गतदिने अतिरिक्ताः 1,223 च जनाः मुक्ताः सन्ति। अनेन सह नेपाले ह्यस्तन दिवसावधि कोरोना संक्रमणात् मुक्तानां जनानां समग्र संख्या 1,93,25,73 च प्राप्येति स्वास्थ्य जनसंख्या मन्त्रालयो ज्ञापयति। ह्य अतिरिक्तेषु 1,047 च जनेषु कोरोना विषाणो संक्रमणं पुष्टिभूतं वर्तते। 8,44,700 च निदर्शनानां रियल टाइम पीसीआर विधिना परीक्षणं विहितं सत् 13,100 पुरूषेषु 1,68,600 महिलासु च संक्रमणं पुष्टिभूतं वर्तते। एतदनु नेपाले पुष्टिभूत कोरोना संक्रमणानां जनानां पश्चात्तनी संख्या 1,18,349.67 च प्राप्ता वर्तते। ह्यस्तन दिवसावधि 1,24,000 च कोरोना विषाणो सक्रिय संक्रान्त जनाः सन्ति। गतदिने कोरोना संक्रमणस्य कारणेन अतिरिक्ताः 7 जनाः मृताः। अनेन सह नेपाले गतदिनं यावत् कोरोना संक्रमणस्य कारणेन मृतानां जनानां संख्या 1,050.73 च प्राप्येति मन्त्रालयेन ज्ञापितं वर्तते। राष्ट्रिय सभायाः अध्यक्षः गणेश प्रसाद तिमलसिना गदति कोरोना महामार्याः नियन्त्रणाय जनप्रतिनिधिनां भूमिका महत्वपूर्णा भवति। काष्ठमण्डपे ह्य आयोजिते कोविड 19 प्रवृत्तिषु महामारीषु संकटेषु च प्रभावकारिणः संचारस्य कृते सांसदानां भूमिका विषयके अन्तर्क्रिया कार्यक्रमे अध्यक्षः तिमलसिना अवोचत् कोरोना महामार्याः नियन्त्रणाय न केवलं स्वास्थ्यकर्मिभिः परं जनप्रतिनिधिभिरपि स्वस्य मतदातारः कार्यक्रमे स्वास्थ्य मन्त्री भानुभक्त ढकालः कोरोना संक्रमणस्य नियन्त्रणाय सर्वकारेण अधिकतम प्रयासः विधीयमानोऽस्तीति अज्ञापयत्। असौ अवदत् कोरोना संक्रमणस्य उपचारो नास्तीति हेतोः अस्य नियन्त्रणाय सर्वकारेण स्वास्थ्यकर्मिभिश्च सहैव सांसदानां स्थानीय प्रतिनिधिनां जनतायाश्च भूमिका आवश्यकी वर्तते। मन्त्री ढकालः संघ प्रदेश स्तरीय चिकित्सालयानां स्तरोन्नत्याः सर्वेषु स्थानीय स्तरेषु चिकित्सालयानां निर्माणस्य च कार्यम् अग्रे वर्धापितम् अस्तीति अज्ञापयत्। सूचना संचार प्रविधि मन्त्री पार्वत गुरूङ भासते योगम् आयुर्वेदम् प्राकृतिक चिकित्सां च प्रति आकर्षणं वर्धमानम् अस्ति। पतञ्जलि योग समिति नेपालस्य अनलाइन योग चौतारी कार्यक्रमे ह्यो मन्त्री गुरूङ अतर्कयत् अस्वस्था व्यक्ति समाजे योगदानं कर्तुं न शक्नोतीति हेतोः शारीरिक मानसिक रूपेण स्वस्थता प्राप्तये योग आवश्यको वर्तते। मन्त्री गुरूङ अस्माकं पूर्वजैः अग्रजैश्च अवलम्बिताः ज्ञानविधयो महत्वपूर्णाः सन्तीति व्याहरन् एतेषां वैज्ञानिक प्रयोगं कर्तुं बलम् अददात्। सर्वकारस्य प्रवक्ता च मन्त्री गुरूङ अकथयत् योगस्य महत्वं देशस्य सुदूरभागं यावत् प्रापयितुं सर्वकारः आवश्यक सहयोगं विददाति। कार्यक्रमे पतञ्जलि योग समिति नेपालस्य प्रमुखः लवदेव मिश्रः योग चौतारी कार्यक्रमस्य संयोजकः लवराज भट्टश्च कार्यक्रमस्य विषये मन्तव्यम् उदैरयताम्। वरिष्ठ चिकित्सकः डाक्टर ध्रुव मुडभरी कोविड 19 संक्रमणेन ह्यो दिवंगतः। तस्य पीसीआर विधेः परीक्षणं लक्षणयुतं दृष्टं। तदनु गृहकान्तवासे स्थितः 77-वर्षीयः डाक्टर मुडभरी श्वास प्रश्वासे समस्यायाः उद्भवनस्य पश्चात् उपचाराय चावेल वर्तिनी ओम चिकित्सालये प्रवेशितः आसीत्। तत्र उपचारस्य क्रमे स दिवंगत इति तस्य पुत्री अनुजा शर्मा अबोधयत्। राजविराज भैरवा बुटवल पोखरा स्थानीय चिकित्सालयेषु काष्ठमण्डपस्य वीर चिकित्सालये च सर्वकारीय शल्य चिकित्सक स्य रूपेण आसन्न 25 वर्षाणि यावत् कृतसेवः डाक्टर मुडभरी ओम चिकित्सालयस्य संस्थापकः आसीत्। तस्य पत्नी पुत्र्यौ पुत्रश्च सन्ति। स्वर्गीयस्य मुडभरी इत्यस्य ह्य एव पशुपतिस्थाने अन्त्येष्टिः विहिता वर्तते। कोरोना महामार्याः कारणेन पिधापिताः 70 जनपदस्य कञ्चनरूप नगरपालिकायाः सामुदायिकाः संस्थागतास्त विद्यालयाः अद्यतः सञ्चाल्यन्ते। विद्यार्थिनो भौतिकरूपेणैव विद्यालयकक्षेषु शिक्षणे सहभागित्वेन विद्यालयाः सञ्चाल्यमानाः सन्तीति नगरपालिकायाः प्रमुखः वसन्तकुमार मिश्रः अज्ञापयत्। गोर्खा नगरपालिकया च नगरक्षेत्रस्य अभ्यन्तरे कोरोना संक्रमणस्य संकटस्य वर्धमानत्वात् अस्यैव मार्गस्य पञ्चदश दिवसं यावत् सर्वा शैक्षिक संस्थाः पिधापयितुं निर्णीतमिति नगरपालिकाया प्रमुख प्रशासकीयाधिकृतः दिनेश राजपन्तः अज्ञापयत्। नेपाल कम्युनिष्ट पार्टी नेकपा दलस्य उपाध्यक्ष वामदेव गौतमः भासते दले विभाजनस्य स्थितिः नागमिष्यति। दाङ जनपदस्य तुलसीपुर उपमहानगरपालिकया ह्यः आयोजिते मेलन कार्यक्रमे उपाध्यक्ष गौतमः दलस्य अभ्यन्तरे श्रेष्ठाः कतिचित् आन्तरिक समस्याः समाधातुम् आत्मना निरन्तरं प्रयासः विधीयमानोऽस्तीति अज्ञापयत्। असौ अकथयत् राष्ट्रं समृद्धिर्दिशि अग्रे वर्धितमस्तीति हेतोः सर्वकारेण घोषणापत्रस्य अनुसार कार्याणि विधेयानि। ऊर्जो जलस्रोत सिञ्चन मन्त्रिणा वर्षमान पुन इत्यनेन नगलाड जलविद्युदायोजनायाः विस्तृतं परियोजना प्रतिवेदनस्य कार्यं तत्कालं सम्पादयितुं सम्बद्ध निकायः निर्दिष्टो वर्तते। जाजरकोट जनपदे निर्मीयमाणायाः 17.4 मेगावट मित क्षमतायाः जलाशय युक्तायोजनायाः विस्तृत परियोजना प्रतिवेदनस्य पूर्वकार्ये एव दीर्घकाले कालो व्यतीतः इति जनानुवेदनस्य प्राप्तेः पश्चात् मन्त्रिणा पुन इत्यनेन एवं निर्दिष्टं वर्तते। मन्त्रिपुन आयोजनेयं कर्णाली प्रदेशस्य स्वरूप परिवर्तिकास्थिति हेतोः प्रतिवेदन निर्माणस्य कार्यं तत्कालं समाप्य आयोजनाय निर्माणे बलं प्रादात्। पाँचथर जनपदे एकस्मिन् एव दिने गत शुक्रवासरे 63 गृहेषु विद्युत् प्रापितास्ति। मिक्लाजुङ कुम्मायक ग्रामपालिकयोः 92.9% च गृहेषु विद्युत विस्तारस्य शुभारम्भम् भौतिक पूर्वाधार यातायात मन्त्री वसन्त कुमार नेवांग व्यदधात्। सर्वेषु स्थानेषु सामुदायिक ग्रामीण वैद्युतीकरण कार्यक्रमस्य अन्तर्गतम् विद्युत सहकारी संस्थायाः नेतृत्वे विद्युत विस्तारः विहितोऽस्ति। सर्वेषु गृहेषु वैद्युतीकरणस्य कार्यम् प्रपूर्य जनपदम् अस्मिन्नेव आर्थिकवर्षे अन्धकारमुक्तम् घोषयितुम् पूर्वकार्यम् विधीयमानमस्ति। मन्त्री नेवांग अज्ञापयत्। कोरोना महामार्याः कारणेन हावित वृत्त्युपार्जनानां जनानां कृते सुदूर पश्चिम प्रदेश सर्वकारेण स्ववृत्त्युपार्जन विकास कार्यक्रमः अग्रे वर्धापितो वर्तते। अब्जैकस्य 40 कोटीनां च रूप्यकाणां कोषं संस्थाप्य स्ववृत्त्युपार्जन विकास कार्यक्रमः प्रारब्धोऽस्तीति सुदूर पश्चिम प्रदेश सर्वकारो ज्ञापयति। हास्यव्यङ्ग साहित्यस्य शिखर व्यक्तित्वस्य भैरव अर्यालस्य स्मृतौ स्थापितेन भैरव पुरस्कारेण अस्मिन् वर्षे वरिष्ठ हास्य व्यङ्ग्यकारः प्राध्यापकः रामकुमार पाणे सम्मानितो वर्तते। एवमेव भैरव प्रतिभा पुरस्कारेण वरिष्ठ हास्य कलाकारः राजाराम पौडेलः सभाजितोऽस्ति इति समाचारः।